इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका अथ वार्ताः झारखण्ड राज्यस्य विभिन्नेषु भागेषु मतदानं शान्तिपूर्णं सञ्जातम् प्रथमचरणस्य विधानसभा निर्वाचनस्य सुदृढ सुरक्षाव्यवस्थायाः मध्ये ह्यः मतदानं पूर्णम् अभवत् अस्मिन् चरणे पञ्चदश जनपदेषु त्रिचत्वारिंशद् आसनेभ्यः मतदानं जातम् अस्य राज्यस्य विधानसभा निर्वाचनस्य प्रथमचरणस्य मतदानानन्तरं द्वितीयचरणीय मतदानार्थं प्रचाराभियानं द्रुततां भजति अनेके वरिष्ठनेतारः स्वक्षेत्रे नैकाः जनसभाः सम्बोधयिष्यन्ति तत्रैव भाजपेति दलीयः वरिष्ठनेता गृहमन्त्री च अमितशाहः अद्य एतस्मिन् राज्ये गिरिडीह गाण्डेय बोकारो क्षेत्रेषु प्रचारं प्रसारं च करिष्यति झामुमो दलस्य नेता मुख्यमन्त्री च हेमन्तसोरेनः देवघर दुमका बोकारो उत्स्थलेषु जनसमागमान् सम्बोधयिष्यति द्वितीयचरणस्य अस्य मतदानं विंशतिदिनांके समनुष्ठास्यते मतगणना च त्रयोविंशतिदिनांके प्रख्यापयिष्यति अपरत्र महाराष्ट्रराज्येऽपि विभिन्नैः दलैः प्रचाराभियानं विधीयते विंशतिदिनांके एकस्मिन्नेव चरणे अत्र निर्वाचनं भविष्यति प्रधानमन्त्री नरेन्द्रमोदी श्वः जनजातीय गौरव दिवसावसरे बिहारराज्यस्य जमुई क्षेत्रं प्रति प्रस्थास्यति क्षेत्रमिदं आबा भगवतः बिरसा मुण्डायाः पञ्चाशदधिकैकशततमस्य जयन्ति वर्ष समारोहस्य प्रतीकं वर्तते श्रीमोदी अत्रावसरे श्वः प्रातः बिरसा मुण्डायाः सम्माने एकस्याः स्मारक मुद्रायाः प्रैष्य पत्रस्य चापि अनावरणं करिष्यति अथ च अनेकासां विकासात्मक परियोजनानां शिलान्यासम् उद्घाटनं च विधास्यति विदेशमन्त्री डॉ एस जयशंकरः समुदीरितवान् यत् भारत फिलीपींस देशयोः सम्बन्धाः लोकतान्त्रिक मूल्येषु बहुविध लोकाचारेषु आर्थिक समानतासु च आधारिताः वर्तन्ते नवदिल्ल्यां भारत फिलीपींस राजनैतिक सम्बन्धानां पञ्चसप्ततितमे वर्ष सम्पूर्त्यवसरे आयोजितम् एकं कार्यक्रमं सम्बोधयन् डॉ जयशंकरः उक्तवान् यत् उभौ देशौ अन्ताराष्ट्रिय विधि मानदण्ड नियमान् च स्थापयितुं गहनतया प्रतिबद्धौ स्तः इति अपि च विगतेषु केषुचित् वर्षेषु देशयोः मध्ये महत्वपूर्णा वृद्धिरपि अवलोकिता त्रिचत्वारिंशत्तमं भारत अन्ताराष्ट्रिय व्यापार मेलकम् अद्य नवदिल्ल्यां भारतमण्डपस्थाने समारप्स्यते अस्य वर्षस्य मेलकस्य विषयो विद्यते सप्तचत्वारिंशदधिकद्विसहस्रतमवर्षे विकसित भारतम् इति अस्मिन् अवसरे अस्मिन् वर्षे प्रमुखराज्यं झारखण्डं सहभागिनौ च बिहार उत्तरप्रदेशराज्ये स्तः अपि च चीन मिस्र ईरान दक्षिणकोरिया थाईलैंड तुर्की संयुक्त अरब अमीरात देशान् समेत्य विभिन्नाः देशाः भागं स्वीकुर्वन्ति मेलकमिदं अष्टादशदिनांकं यावत् व्यवसायाय उद्घाटयिष्यते तदनन्तरं सप्तविंशतिदिनांकपर्यन्तं सामान्यजनेभ्यः प्रचलिष्यति एतत् मेलकं प्रातःकाले दशवादनतः सायं सार्ध सप्तवादनपर्यन्तम् उद्घाटितं भविष्यति भारतीय ऋतुविज्ञान विभागेन उक्तं यत् जम्मूकश्मीरे हिमवृष्टेः कारणेन दिल्ली सहित उत्तरभारतेषु अन्येषु भागेषु वातावरणस्य स्थितिः परिवर्तिता भविष्यति दिल्ली हरियाणा पंजाब उत्तरप्रदेश चेत्यादिषु राज्येषु अद्य आरभ्य द्वित्रिदिनानि यावत् हिमधूमिकायाः नारंगवर्णीया सञ्चेतना प्रख्यापिता क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ भारतेन सेंचुरियन इत्येतस्य सुपरस्पोर्ट पार्क इत्यत्र चतस्रीणां श्रृंखलानां तृतीये विंशति प्रतिविंशति अन्ताराष्ट्रिय क्रिकेट द्वन्द्वे दक्षिणाफ्रीकादलं एकादश धावनांकैः पराजितम् इति वार्ताः